सरस्वती नमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा गुरुर्ब्रह्मा गुरुर्विष्णुर् गुरुर्देवो महेश्वरः गुरुः साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः धन्यवादः महोदय
धन्यवादः भगिनी सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् वर्गे अत्र अस्माकं प्रवर्तमानविषयः अस्ति तत्र कर्मणि भावे प्रयोगः लोट् लकारे इति तत्र वयं रूपाणि दृष्टवन्तः अपि तत्र अभ्यासमपि कृतवन्तः तत्र लोट् लकारे तत्र साधारण तत्र आत्मनेपदी धातु यः अस्ति तस्य लोट् लकारः वयं पूर्वम् अपि दृष्टवन्तः इदानीं तत्र कर्मणि नाम तत्र पठति इति अस्ति चेत् पठति इति भवति तस्य कर्मणि प्रयोगे लट् लकारे तत्र पठ्यते इति भवति किन्तु इदानीं लोट् लकारः आवश्यकम् इति कृत्वा पठति इति स्थाने पठ्यते न किन्तु पठ्यते इति स्थाने पठताम् इति भवति पठ्यताम् इति भवति अतः तत्र कर्मणि अपि भावे प्रयोगः लोट् लकारे एकवारं तत्र प्रायशः तत्र स्मरणं नास्ति इति मन्ये अतः तत्र एकवारं तत्र नरेश महोदय तत्र एकवारं तत्र आत्मनेपदी धातूनां तत्र वर्तते इति तत्र तस्य वर्तते इति पद आत्मनेपदी धातु क्रियापदस्य लोट् लकाररूपाणि एकवारं वदति वा महोदय
लोट् लकारे
हा वर्तते
वर्ततां वर्तन्ताम् वर्तस्व वर्तेथां वर्तध्वं वर्तै वर्तावहै वर्तामहै
हा समीचीनं महोदय अस्तु धन्यवादः गीताञ्जलि भगिनी नमस्कारः
नमस्ते महोदय
नमस्कार भगिनि एषः समयः समीचीनः भगिनि भवत्याः
समीचीनं महोदय
पुटसङ्ख्या अस्ति 139
इति
अस्तु तर्हि तत्र शोभा भगिनी आरम्भं करोति वा
आं महोदय तत्र पञ्चमः अभ्यासः अधः दत्तेषु वाक्येषु दोषान् परिहरत उदाहरणं यूयं कर्मणि क्रियन्ताम् कर्माणि क्षम्यतां कर्माणि क्रियन्ताम् युष्माभिः कर्माणि क्रियन्ताम्
अत्र दोषः कः आसीत् अस्मिन् वाक्ये
तत्र कर्तरि यदि क्रियन्ताम् इति भवति चेत् बहुवचने अस्ति प्रथमपुरुषे किं तत्र कर्तरिप्रयोगे अस्ति अतः तत्र कर्मणि प्रयोगे
तत्र कर्तृप्रयोगे अस्ति वा तत्र
ओ एकनिमिषं महोदय तत्र दृश्यतां दृश्येतां दृश्यन्तां तत्र ओ लोट् कर्मणि एव अस्तु
न न न न भगिनि तत्र केवलं तत्र क्रियन्ताम् इति पदस्य तत्र क्रियापदस्य तत्र पुरुषः वचनं बहुवचनं पुरुषः कः प्रथमपुरुषः इति उक्तवती खलु
ओ अस्तु क्षम्यतां तत्र प्रथमपुरुषः तत्र युष्माभिः इत्युक्ते
तत्र अतः तत्र क्रियन्ताम् इति प्रथमपुरुषः बहुवचनम् अतः तत्र किन्तु यूयम् इति अस्ति खलु अतः दोषः
इत्युक्ते तत्र मध्यमपुरुषः भवनीयं तर्हि तत्र क्रियध्वम् इति भवति वा महोदय
न न भगिनि तत्र यूयम् इति स्थाने युष्माभिः एव भवितुमर्हति तत्र कर्मणि प्रयोगे तत्र नियमः कः क्रियापदं कम् अनुसरति अथवा किम् अनुसरति
क्रियापदं कर्मपदम् अनुसरति
अपि कर्मपदं कस्यां विभक्त्यां भवति कर्मणि प्रयोगे
प्रथमविभक्त्यां भवति
अत्र कर्मपदं किम् अस्ति
तत्र तु
कर्माणि कर्माणि इति क्रियापदम्
अस्ति
कर्माणि इति कर्मपदं तत्र तत् कर्मपदं तत्र प्रथमाविभक्त्यन्तम् अस्ति. पुरुषः कः अस्य कर्मपदस्य?
पुरुषः तत्र युष्माभिः
इति. न न कर्मपदस्य पुरुषः कः इति?
कर्मपदस्य पुरुषः वा महोदय?
प्रथमपुरुषः. तत्र सः मां पश्यति अस्ति चेत् माम् इति कर्मपदं खलु?
आम्.
तत्र माम् इति कर्मपदस्य पुरुषः कः? नाम वाक्ये वाक्ये तत्र माम् इत्युक्ते तत्र पुरुषः नाम तत्र माम् इति अस्ति, अतः तत्र प्रथमपुरुषे न भवति, अन्तर्भूतः न भवति खलु?
आम्.
हा, उत्तमपुरुषे एव भवति खलु तत्र?
आम् महोदय.
हा, अत्र कर्माणि इति एव कर्मपदम्. कर्माणि इति कर्मपदं भवति चेत् तत्र क्रियापदस्य पुरुषः तत्र किं भवनीयम्? क्रियापदं कर्मपदम् अनुसरति खलु?
क्रियन्तानि. क्षम्यतां महोदय,
चिन्ता मास्तु भगिनि. तत्र अस्तु, तत्र अस्तु, एतत् कुर्मः. तत्र बालकः पाठान् पठति. इदं कर्तृप्रयोगः. बालकः पाठान् पठति अथवा ग्रन्थान् पठति. इदानीं तत्र कर्मणि प्रयोगः वदतु तस्य.
बालकेन ग्रन्थानि.
न न ग्रन्थः इति पुल्लिङ्गपदम्.
हा, ग्रन्थाः, क्षम्यताम्. बालकेन ग्रन्थाः पठ्यन्ते
इति स्वीकृतम्. अस्तु, इदानीं तत्र बालकः युष्मान् अथवा बालकः त्वं पश्यति, त्वां पश्यति. बालकः त्वां पश्यति.
बालकेन त्वाम् इत्यस्य तत्र प्रथम त्वं भवति, त्वम् इति. बालकेन त्वं दृश्यते.
इदानीं तत्र त्वम् इति अस्ति. त्वमेव कर्मपदं खलु? त्वमेव कर्मपदम्.
आम् महोदय, बालकेन त्वं दृश्यसे, दृश्यते अथवा
दृश्यसे इति आगतं खलु? अतः तत्र क्रियापदं कर्मपदम् अनुसरति कस्मिन् विषये? वचने च पुरुषे खलु?
पुरुषे अपि.
अत्र कर्माणि इति अस्ति. तत्र कर्माणि कथम् अस्ति? तत्र सः इति तादृशम् अस्ति वा, यूयं त्वम् इति तादृशम् अस्ति वा, अथवा अहम् अथवा वयं तादृशम् अस्ति वा कर्मपदम्?
किं महोदय पुनः?
तत्र बालकेन त्वं दृश्यसे इति, तत्र त्वम् इति पुरुषः कः?
त्वम् इति तु मध्यमपुरुषः.
तत्र ग्रन्थाः इति अस्ति, तत्र ग्रन्थाः इति पुरुषः कः?
ग्रन्थाः इति प्रथमपुरुषे.
इदानीं कर्माणि इति अस्ति, तत्र प्रथमपुरुषः वा द्वितीयपुरुषः वा, प्रथमपुरुषः वा मध्यमपुरुषः वा उत्तमपुरुषः वा?
तत्र प्रथमपुरुषे भवति.
अतः तत्र क्रियापदं, क्रियापदस्य रूपं किं? क्रियन्ताम्.
आम्
खलु, लोट् लकारे.
आम् आम्.
हा, क्रियतां, क्रियन्ताम्, क्रियन्तां लोट् लकारे बहुवचने प्रथमपुरुषे खलु? कर्मपदम् अनुसरति. कर्मपदं कर्माणि इति अस्ति खलु?
महोदय,
इदानीं तत्र कर्तृपदस्य कर्मणि प्रयोगे कर्तृपदस्य विभक्ति का?
कर्मणि प्रयोगे एव तत्र युष्माभिः इति.
हा, तत्र कर्मपद कर्तृपदस्य विभक्ति तृतीया
विभक्ति भवति. यूयम् इत्यस्य तृतीया भवति.
अतः
युष्माभिः कर्माणि इति तु प्रथमपुरुषे एव तत्रापि भवति.
प्रथमपुरुषः प्रथमविभक्त्यन्तमपि,
प्रथमविभक्त्यन्तं प्रथमपुरुषे तस्य तत् अनुसृत्य क्रियन्ताम् इति भवति
इति अस्ति. अतः दोषः कुत्र आसीत्? कस्मिन् पदे दोषः अथवा किं पदं दोषयुक्तम् आसीत्? दत्ते वाक्ये यूयं कर्माणि क्रियन्ताम् इति वाक्ये दोषयुक्तपदं किम्?
हा तत्र क्रियन्ताम् इति एव दोष तत्र भवति किल किल महोदय, वाक्यद्वये अपि एकमेव रूपं नास्ति, तत्र एकं कर्तरि अस्ति एकं कर्मणि अस्ति.
न न न, तत्र यत् वाक्यं दत्तम् अस्ति तत् कर्मणि रूपमेव दत्तम्, किन्तु इदानीं तत्र भवती पठति तत्र पुनः तत्र अभ्यासस्य वाक्यं पठतु भगिनि, तत्र कार् अस्माकं कार्यं किम् इति एकवारं पठतु. अधः दत्तेषु
वाक्येषु दोषान् परिहरत.
दोषान् परिहरत नाम परिवर्तयत इति इदानीम् अस्माकं कार्यं नास्ति.
अस्तु,
कर्तृप्रयोगतः कर्मणि प्रयोगं गन्तुम् इदानीं कार्यं नास्ति. यत् वाक्यं दत्तम् अस्ति तद् दोषयुक्तवाक्यम् अस्ति, तस्मिन् वाक्ये दोषः कः इति तत्र
तत्र दोषः यूयम् एव.
हा
ओ अहम् अस्तु महोदय, किञ्चित् भ्रमः जातः तत्र.
हा हा हा, इदानीं समीचीनं वा?
अधुना समीचीनम्, अधुना.
अतः तत्र कर्मणि प्रयोगः एव दत्तं, किन्तु दोषयुक्तकर्मणि प्रयोगः तत्र समीचीनतया न कृतम्.
प्रथमवाक्यमेव तत्र दोषयुक्तः अस्ति.
अतः तत्र यूयम् इति तत्र दोषः अस्ति, यूयम् इति दोषयुक्तपदम् अस्ति, कर्मणि प्रयोगवाक्यम् अस्ति, किन्तु यूयम् इति दोषयुक्तपदमस्ति, तस्मिन् स्थाने सम्यक् पदं भवति युष्माभिः इति. अस्तु, इदानीं तत् उदाहरणमासीत्, इदानीम् अग्रे करोतु भगिनि.
तत्र तैः यशः लभताम् इति अस्ति. तत्र पुनः तृतीय प्रथमवाक्ये तृतीय एव अभवत्, यशः लभताम् इति तु कर्तरि न लभताम् इति
तत्र एकमेकम् एकमेकं दृष्ट्वा वदतु भगिनि, तैः इति तत्र कर्तृपदं वा क्रियापदं वा?
तत्र तैः इति कर्तृपदम्
तृतीयान्तम्. अस्तु, यशः इति
कर्मपदं प्रथमविभक्तौ प्रथमपुरुषे
एकवचने
अपि च लभताम् इति तत्र क्रियापदं तत्तु प्रथमपुरुषे
अत्र अस्तु. इदानीं तत्र लभताम् इति क्रियापदं, तत्र धातुः कः?
लब् धातुः.
लब् धातुः, अस्तु. इदानीं लब् धातोः तत्र लट्लकररूपं किम् अस्ति?
लब् धातोः आत्मनेपदी लभते इति भवति.
लभते इति भवति. इदानीं लभते इति एव रूपं कर्मणि प्रयोगे तिष्ठति वा अथवा नूतनरूपं भवति?
तत्र यक् प्रत्यय लभ्यता
लभ्यते इति भवति. इदानीं लभ्यते इति स्थाने लोट्लकारः कः?
तत्र लोट्लकारः कर्तरी लभताम् अस्ति, अतः तत्र लभ्यताम् इति भवनीयम्
इति एव.
तत्र तैः यशः लभताम् इति तैः यशः लभ्यताम्
इति भवनीयं खलु? तावदेव समीचीनं भगिनि. तत्र लब् इति समीचीनं, लभताम् इति अपि क्रियापदं समीचीनं, किन्तु तत्र लभतां तत् लब् धातोः कर्तृप्रयोग तत्र लोट्लकररूपं भवति. लभ्यताम् इति कर्मणि प्रयोग प्रयोगे समीचीनः भवति.
अत्र लोट्लकारः किमर्थमस्ति?
यतोहि अस्मिन् अध्याये विषयः लोट्लकारः एव अस्ति खलु महोदय.
यथा तैः यशः लभताम् तैः यशः लभ्यते तदपि सम्यक् अस्ति,
तत् भवितुम् अर्हति. लभ्यते
तत् तैः यशः लभ्यते
तत् समीचीनमस्ति महोदय, किन्तु अत्र किमस्ति? अस्माकं विषयः मूलविषयः अस्मिन् अध्याये लोट्लकारः अस्ति खलु. तत्र केवलं वाक्यं कुत्रापि आसीत् चेत् तत्र अनेके विधाः सन्ति तत्र परिवर्तनं कर्तुं, किन्तु अत्र लोट्लकारः कर्मणि प्रयोगः इति मूलविषयः अस्ति खलु महोदय.
अस्तु अस्तु
अतः कर्मणि प्रयोगः भवेत् लोट् लकारः अपि भवेत् खलु
तत्र तैः यशः लभ्यन्ते इति लट् लकारः भवति किल महोदय
तैः यशः लभ्य लभ्यते
क्षम्यतां तैः एषः एकवचने अस्ति लभ्यते
तत्र
कर्तरि अस्ति चेत् सः यशः लभ्यते
न न ते ते ते
ते ते क्षम्यतां बहुवचने ते यशः लभ्यते
ते ते यशः लभन्ते
कर्मणि अस्ति चेत् महोदय क्षम्यतां कर्मणि अस्ति चेत्
कर्मणि अस्ति चेत्
कर्मणि कर्मणि लट्लकारे अस्ति चेत्
वाक्यं वदतु
हा लट्ल अस्तु तत्र कर्तरि अस्ति चेत् ते यशः लभन्ते कर्मणि अस्ति चेत् तैः यशः लभ्यते
लोट्लकारे
लोट्लकारे तैः यशः यशः तैः यशः लभतां
न न लभ्यतां
लभ्यतां लभ्यताम् इति भवति
कर्मणि अस्ति चेत् तत्र यक् भवेत् खलु
लभ्यताम् इति भवति
अतः तत्र लभ् इति धातुः पुनः तत्र लभ्य इति भवति लभ्यते अथवा लभ्यताम् अतः तत्र भेदः मनसि तत्र स्पष्टतया भवेत् खलु
आम् महोदय तत्र तैः यशः लभ्यताम् तेन यशः
तत् चिन्ता मास्तु किन्तु तत्र लभते लभ्यते लभ्यताम्
आम् लभते कर्तरि
कर्तरि लभते अथवा वचनं भिन्नं भवेत् किन्तु लभते कर्तरि लभ्यते कर्मणि
लट् लकारे अपि च लोट् लकारे लभ्यताम्
अस्तु समीचीनं
द्वितीयविभक्ति किम् अस्ति
कस्य पदस्य महोदय
यश्
यशः महोदय तत्र यश सकारान्तपदम् इति मन्ये महोदय मनः इव नपुंसकलिङ्गपदं
द्वितीयविभक्ति
पुनः नपुंसकलिङ्गपदम् अतः तत्र यशः एव भवति खलु अतः अहं चिन्तयामि तत्र मनः एव महोदय मनः मनसि मनांसि यशः यशसि यशांसि सकारान्तपदम् अस्तु तर्हि अग्रे तत्र नरेश महोदय भवानेव अग्रे पठतु
महोदय पाण्डवाः राज्यं भुज्यताम् अत्र पाण्डवाः राज्यं भुज्यतां तत्तु कर्तृप्रयोगः अस्ति
भुज्यताम् इति अस्ति महोदय तत्र
भुज्यतां पाण्डवाः राज्यं तत्तु कर्तृप्रयोगः अस्ति
महोदय इदानीं तत्र वाक्ये दोषः अस्ति एव उक्तं तत्र कर्तृप्रयोगे अस्ति इति न उक्तम् केवलम् अहं चिन्तयामि कर्मणि प्रयोगे एव भवेत् किन्तु दोषयुक्तः अस्ति अतः कर्तृप्रयोगं दत्तं कर्मणि प्रयोगं करणीयम् इति तादृशं मा चिन्तयतु यत् वाक्यं दत्तम् अस्ति तद् दोषयुक्तवाक्यम् अतः कार्यं किम् इत्युक्ते एकमेकं पदं दृष्ट्वा तत् कर्तृपदं तत् कर्मपदं तत् क्रियापदं तृतीयविभक्तम् अस्ति वा प्रथमविभक्तम् अस्ति वा इति तत्र तादृशं कार्यं करणीयं महोदय अतः तत्र पाण्डवाः इति स्वीकृत
पाण्डवाः राज्यं
पाण्डवाः इति अस्ति कर्तृपदं वा कर्मपदं वा इति प्रथमतया
कर्तृप्रयोगः
एतत् सर्वं मा वदतु कर्तृपदं किम् इति वदतु तत्र अस्मिन् वाक्ये कर्तृपदं किं
कर्तृपदं पाण्डवाः
पाण्डवाः अस्तु पाण्डवाः इदानीं तत्र अस्माकं किम् इष्टं वाक्यं कीदृशवाक्यम् इष्टं कर्मणि प्रयोगः लोट् लकारवाक्यम् इष्टम्
आम् आम् अस्तु अस्तु पाण्डवैः
पाण्डवैः इति भवेत् तदनन्तरं तत्र राज्यं
नपुंसकलिङ्गराज्यं
हा अतः तत्र प्रथमाविभक्त्यन्तं कर्मपदं
भुजताम्
पूज्यताम् इति अस्ति
भुज्यताम् पाण्डवैः राज्यं भुज्यताम्
इदानीं तत्र भुज्यताम् इति समीचीनमस्ति वा
अहं चिन्तयामि कर्मणि योगे भुज्यताम् सम्यक् अस्ति
सम्यक् अस्ति महोदय तत्र
पाण्डवैः राज्यं भुज्यताम्
तत्र भुज्यताम् इति पुरुषः कः वचनं किम्
प्रथमपुरुषः एकवचनं
एकवचनं यतोहि राज्यं तत्र त्वम् अहं तादृशं नास्ति राज्यमस्ति तत्तु प्रथमपुरुष एव भवति खलु तत्र के तत्र कानि पदानि सन्ति तत्र प्रथमपुरुषे
प्रथमपुरुषे राज्यं
न न केवलं महोदय तत्र अनेकानि पदानि सन्ति खलु संस्कृतभाषायाम् अनेकानि पदानि सन्ति खलु तत्र कानि पदानि प्रथमपुरुषे सन्ति
प्रथमपुरुषे यत् मध्यमपुरुषे उत्तमपुरुषे नास्ति
अस्तु किन्तु उत्तरं सुलभमस्ति महोदय क्लिष्टं नास्ति तत्र गीताञ्जलिभगिनी वदतु तत्र प्रथमपुरुषे कानि पदानि सन्ति संस्कृते अनेकानि पदानि सन्ति खलु तत्र किन्तु उत्तमपुरुषे कानि पदानि सन्ति यथा तत्र नरेश् महोदय उक्तवान् तद् अपि अनुसरतु तत्र
पदत्रयं महोदय इत्युक्ते त्रिषु वचनेषु
न भगिनि तत्र सः इति वदामः पुरुषः इति वदामः महिला इति वदामः तत्र पुरुषः कः तत्र प्रथमपुरुषः वा मध्यमपुरुषः वा उत्तमपुरुषः वा
प्रथमपुरुषः
अस्तु अतः मध्यमपुरुषे किं किं भवति
त्वं मध्यमपुरुषे तु केवल त्वं
युवां
युवां यूयम् अपि च
उत्तमपुरुषे किं भवति
अहम् आवां वयम् अहम् आवां
षट् पदानि सन्ति खलु
षट् पदानि
मध्यमपुरुषे उत्तमपुरुषे अन्यानि सर्वाणि पदानि प्रथमपुरुषे एव भवन्ति खलु
प्रथमपुरुषे भवन्ति
केवलं षट् पदानि सन्ति यानि प्रथमपुरुषे न सन्ति खलु
सत्यं सत्यं
अतः तत्र त्वं युवां यूयम् अहम् आवां वयं नास्ति चेत् तत् प्रथमपुरुषपदमेव इति अस्तु नरेश् महोदय अतः तत्र पुनः भवतः वाक्यं तत्र भुज्यताम् इति अस्ति अतः पूर्णवाक्यम् एकवारं वदतु महोदय कर्मणि प्रयोगे लोट्लकारे
पाण्डवाः राज्यं भुज्यताम्
किन्तु
पाण्डवैः राज्यं भुज्यताम्
इति समीचीनं तत्र राज्यमिति प्रथमपुरुषपदम् अतः पूज्यताम् इति प्रथमपुरुषे अस्ति खलु एकवचनं
राज्यं महोदय नपुंसकलिङ्गपदं
नपुंसकलिङ्गपदं भगिनि अतः तत्र राज्यमिति द्वितीयविभक्त्यन्तं प्रथमविभक्त्यन्तं समानरूपम् अस्तु महोदय अस्तु गीताञ्जलि भगिनी भवती एव अग्रे
केनापि स्वधर्मं न त्यज्यताम् केनापि तु तृतीय स्वधर्मम् इति कर्मपदं किन्तु प्रथम अस्ति चेत् स्वधर्मः न त्यज्यताम् इति मन्ये महोदय
हां भगिनि धर्मः इति तत्र पुल्लिङ्गपदं
हा पुंलिङ्गं पदम् अस्ति चेत् धर्मः न त्यज्यतां, केनापि स्वधर्मः न त्यज्यताम्।
हा तत्र दोषः दोषयुक्तपदं किम्
इति स्वधर्मम् इति द्वितीय विभक्तिरूपं दत्तं, किन्तु दोषयुक्तपदम् अस्ति तत्र।
अस्ति तत्र समीचीनं भगिनि। हा तत्र दोषः कुत्र अस्ति अस्मिन् वाक्ये? कर्मपदे दोषः अस्ति, कर्मपदं दोषयुक्तपदम् अस्ति अस्मिन् वाक्ये। समीचीनं भगिनि। हा अस्तु, अग्रे लक्ष्मी भगिनी।
अस्तु महोदय, युष्माभिः संसारवृक्षस्य फलं न भुज्यताम्। युष्माभिः तृतीयविभक्तौ विभक्तिः अस्ति। संसारवृक्षस्य फलं फलं प्रथमाविभक्तौ भवेत्।
फलम् अस्तु, समीचीनं।
दोषः नास्ति इति
नास्ति वा
फलं
तत्र? अस्तु, अत्र दोषः नास्ति, समीचीनं।
न भुज्यताम्
तत्र न रूपं क्रियापदं किं दत्तमस्ति?
भुञ्ज
भुञ्जताम् इति दत्तं,
भुञ्जताम्।
अतः भुञ्जताम् इति तत्र किं भवति?
भुज्यताम् इति भवेत् वा?
भुज्यताम्, भुञ्जताम् इति तत्र तु तत्र किम् अस्ति? लोट्लकारः अस्ति, कर्त्री कर्त्री लोट्लकारः। किन्तु अस्माकं वय तत्र अस्माभिः किम् इष्टं? कर्मणि लोट् लकार,
कर्मणि लोट्।
अतः तत्र भुञ्ज्यताम् इति भुज्यताम् इति फलम् इति तत्र भवेत्। अस्तु समीचीनम्। अस्तु अग्रे शोभा भगिनी।
आम् महोदय, तत्र भवन्तः तान् वीक्ष्यन्ताम्, तत्र भवन्तः इति प्रथमपुरुषे बहुवचने, तान् इति तान् इति
कर्तृपदं किम् अस्ति?
कर्तृपदं भवन् तान् इति कर्तृपदम्।
इदानीं तत्र कस्मिन् विभक्त्यां कस्यां विभक्त्यां भवेत् कर्तृपदं?
प्रथमविभक्ति भवेत्, किन्तु तत्र द्वितीया दत्तं बहुवचने।
किं किं न कर्तृपदस्य कर्तृपदस्य किं
तान् तत्र
न प्रथमपदं भवन्तः अस्ति खलु भगिनि?
आम्।
तत्र कर्तृपदं वा तद्?
न,
भवन्तः इति कर्तृपदं नास्ति वा?
ओ तत् तस्मिन् वाक्ये अस्ति, भवन्तः तान् वीक्ष्यन्ताम् इति। भवन्तः
भवन्तः इति कर्तृपदं वा कर्मपदं वा?
तत्र महोदय कर्तरि भवति चेत्
भगिनि तत्र इदानीं भगिनि तत्र कर्तरि कर्मणि एतादृशं चिन्तां न भवनीयं। केवलं अस्माभिः किम् इष्टं? कर्मणि लोट् लकारः इष्टम्। अतः वाक्यं पश्यामः तत् केवलं तत्र कर्तृपदं तृतीया विभक्त्यन्तम् इति एव करणीयं, तावदेव। कर्तृ भवेत् चेत् किम् इति मास्तु।
तत्र भवन्तः तत्र कर्तरी अस्ति चेत् भवति इति, तत्र भवद्भिः इति भवनीयम्।
अतः तत्र
कर्तृपदं तृतीया विभक्त्यां
भवितव्यं, किन्तु
अतः
तत्र भवन्तः इति स्थाने भवद्भिः इति समीचीनं। तदनन्तरं तान् इति अस्ति,
तान् इति
कर्मपदं वा कर्तृपदं वा? कर्मपदं खलु
इदानीं।
इदानीं तत्र कर्मपदस्य विभक्ति का?
विभक्ति तत्र द्वितीया अस्ति, प्रथमा भवेत्। तत्र तत्ते तानि इति, तानि भवद्भिः तानि वीक्ष्यन्तां।
न तान् इति पदस्य लिङ्गं किम्?
तान् इति पदस्य बहुवचने
लिङ्गं,
लिङ्गं तु नपुंसकलिङ्गं,
पुंलिङ्गं।
क्षम्यतां, रामान् अस्तु, पुंलिङ्गं।
तत्र सः तौ ते,
सः तौ ते,
तं ते,
तं तौ तान्। आम्,
तं तौ तान्, तं तौ
तान्।
अतः तत्र भवद्भिः
भवद्भिः ते वीक्ष्यन्ताम्।
भवद्भिः ते वीक्ष्यन्ताम्। तत्र दोषः कुत्र अस्ति अस्मिन् वाक्ये?
दोषद्वयं
तत्र पदयोः, पदयोः तत्र
पदयोः तत्र भवन्तः इति भवद्भिः भवेत् अस्ति च तान् इति ते इति भवेत्।
हा इति समीचीनं भगिनि, हा समीचीनम्। अस्तु अग्रे नरेश महोदय।
सर्वैः आत्मना आत्मानम् उद्ध्रियताम्। अहं चिन्तयामि अत्र कर्तृ तु तृतीयविभक्ति,
कर्तृपदं किम् अस्ति, कर्तृपदं किम् अस्ति
अस्मि सर्वे
अस्तु, किन्तु यत् पदं साक्षात् पदम् अस्ति तत् किम् अस्ति कर्तृपदम् अत्र? सर्वे इति कर्तृपदं नास्ति अस्मिन् वाक्ये। यत् पदम् अस्ति साक्षात् पदं यत् अस्ति तदेव कर्तृपदम्। अस्मिन् वाक्ये कर्तृपदं किम् अस्ति? सर्वैः,
सर्वैः अस्ति,
सर्वैः एव कर्तृपदम् अस्ति। यदि वयं सर्वे इति कर्तृपदम् अस्ति चेत् तत् भिन्नं वाक्यम् अस्ति।
आम् आम् आम्।
अस्मिन् वाक्ये कर्तृपदं किम् अस्ति? सर्वैः इति,
सर्वैः,
यतोहि कर्तृपदस्य तृतीयाविभक्त्यन्तं भवेत्। सर्वैः,
सर्वैः सम्यक् अस्ति, आत्मना सम्यक् अस्ति तृतीयविभक्ति, आत्मानं द्वितीयविभक्ति अस्ति। अत्र प्रथमविभक्ति भवितव्यं,
यतोहि कर्मपदम् अस्ति तत्। अतः तत्र आत्मानम् इति स्थाने किं भवेत्?
आत्मा,
आत्मा, समीचीनम्। आत्मन् इति प्रातिपदिकम्, आत्मा इति प्रथमविभक्त्यन्तम्, अतः आत्मा उद्ध्रियताम्। उद्ध्रियतां तत्र प्रथमपुरुष तत्र उत्तमपुरुष नास्ति, प्रथमपुरुष एकवचनम्, अतः उद्ध्रियतां समीचीनं भवेत्।
सर्वैः आत्मना आत्मा उद्ध्रियताम्,
उद्ध्रियताम् इति पूर्णवाक्यं, समीचीनं महोदय।
महोदय तत्र, महोदय क्षम्यतां महोदय, तत्र सर्वैः आत्मभिः न,
न न न भगिनि, तत्र सर्वैः इति वचनं किम्?
सर्वैः तु तृतीया बहुवचन, सर्वैः आत्मभिः इत्युक्ते
विशेषणं नास्ति तत्र, सर्वे आत्मनः इति तत्र आत्मानः इति नास्ति तत्र, तत्र सर्वैः एकः प्रत्येक पुरुषः वा महिलः महिला वा आत्मना एव करणीयम् इति अस्ति। अत्र कर्तृप्रयोगरूपं किं भवति? सर्वे आत्मना आत्मानं तत्र तत्र अभिवृद्धं करोति इति किमपि भवेत् तत्र क्रियापदं, किन्तु सर्वे आत्मना, आत्मना इति तत्र माध्यमम् अस्ति, करणम् अस्ति।
तृतीया
प्रथमा, तृतीया अस्ति, तृतीया यतोहि करणम् अस्ति तत्र, कर्तृपदने तत्र विशेषणम् इति नास्ति तत्र।
सर्वैः आत्मना माध्यमेन तत्र आत्मानम् इत्युक्ते तत्र
न न सर्वैः अस्ति चेत् आत्मानं न भवति, किन्तु सर्वे अस्ति चेत्, अतः कर्त्री चिन्तयतु, सर्वे, सर्वे आत्मना माध्यमं, सर्वे आत्मानं किमपि करणीयं किन्तु कुर्वन्ति, सर्वे आत्मानं किमपि कुर्वन्ति तत्र अभिध्रियताम् इति तत्र उद्ध्रियतां तत्र कर्त्री लट्लकारम् अथवा लोट्लकारं न जानामि अहं, किन्तु यत् यत्किमपि भवतु किन्तु आत्मानं, सर्वे आत्मानम्, आत्मानम् इति कर्मपदं केन माध्यमेन तत्र क्रिया तत्र माध्यमं किमपि अस्ति वा? अस्ति, आत्मना आत्मानम्
अस्तु, एकमेव माध्यमस्ति सर्वैः अपि,
अतः
अवगतम् अधुना अहं मन्ये विशेषणविषये,
सत्यं भगिनि, तद्वाक्यमपि भवेत्
महोदय,
तद् वाक्यमपि भवति किन्तु अर्थः भिन्नः,
हा हा हा, सत्यम् अर्थः भिन्नः,
तदपि व्याकरणदृष्ट्या तदपि भवेत् किन्तु भिन्नः अर्थः।
अवगतं महोदय,
अस्तु भगिनि, भवती एव अग्रिमवाक्यं भगिनि।
भवद्भिः श्रेयः आप्नुताम् भवद्भिः तु तृतीया बहुवचन भवद्भिः श्रेयः सत्यं प्रथमपुरुष एकवचन आप्नुताम् अत्र यत् यक् प्रकार यक् यक् प्रत्यय नास्ति आप्नूयतां वा आप्
न न तत्र आप्यताम्
आप्यतां हा हा नू नास्ति हा हा आप्यतां क्षम्यतां आप्यताम्
तत्र आप्यताम् तत्र आप्यते इति भवति लट् लकारे किन्तु तत्र लोट् लकारे आप्यताम् आप्यताम्
इत्युक्ते धातु
आप् इति एव धातु
यक्ताम्
आप्यताम् अतः भवद्भिः श्रेयः आप्यताम्
आप्यताम्
आप्यताम् इति भवति अस्तु अग्रे लक्ष्मी भगिनी
अस्तु महोदय योधैः विजयम् प्राप्यतां योधैः तृतीया सम्यक् समीचीनं विजयं विजयः इति भवेत् विजयः प्राप्यतां
हा इति अस्ति भगिनि समीचीनं हा विजयः इति तत्र पुल्लिङ्गपदम् अस्ति प्रथमविभक्त्यन्तं विजयः इति भवेत् प्राप्यतां तत्र आप्यताम् इति पूर्वम् आसीत् तदेव अस्ति प्रउपसर्गः प्र उपसर्गः अस्ति तावदेव समीचीनं भगिनि अस्तु अग्रे शोभा भगिनि
आम् महोदय भारतस्य यशः वृद्ध्यतां तत्र भारतस्य इति षष्ठीविभक्तौ अस्ति तत्र कर्तृपदं तृतीयविभक्तौ भवेत् भारतस्य तत्र
अत्र कर्तृपदं किम् अस्ति
कर्तृपदं तत्र तु भारत भारत
न न न न न तत्र न न भगिनि
यशः वृद्ध्यताम्
यशः वृद्ध्यताम् अस्तु इदानीं तत्र वृद्ध्यताम् इति स्वीकरोतु तत्र वृद्ध्यताम् इति रूपं दत्तमस्ति तत्र धातुः कः इति भवत्याः ऊहा
वृद्ध इति अस्ति वा महोदय
हा वर्धते
वर्धते इति
वर्धते इति इदानीं वर्धते इति तत्र अकर्मकः वा सकर्मकः वा इति प्रश्नः
वर्धते वर्धते धातुः सस्य
तत्र यशः वर्धते इति वक्तुं शक्नुमः वा
आम्
यशः वर्धते इति
यशः वर्धते भवति महोदय
इदानीं तत्र यशः वर्धते मध्ये किमपि स्थापितुं शक्नुमः वा कर्मपदं
न
न न खलु
यशः
सस्या वर्धते सस्यानि वर्धन्ते
आम् कर्मपदं तत्र
किन्तु मध्ये किमपि स्थापितुं शक्नुमः वा कर्मपदमस्ति वा तत्र
नास्ति महोदय तत्र सस्यः वर्धते एव कर्मपदं न भवति किल तत्र
अतः अकर्मकः अस्ति
अकर्मकः
अस्ति अस्तु अकर्मकः अस्ति चेत् इदानीं तत्र प्रयोगः कः भावे प्रयोगः वा कर्मणि प्रयोगः वा
भावे प्रयोगः अकर्मकः अस्ति चेत् भावे
कर्मपदं नास्ति कर्मपदं नास्ति चेत् भावे प्रयोगे तत्र क्रियापदस्य पुरुषः कः वचनं किम्
पुरुषः प्रथमपुरुषे एकवचने एव
अतः तत्र वृद्धातोः वृद्ध्यताम् इति भवितुमर्हति खलु तत्र
आम्
यतोहि प्रथमपुरुषः एकवचनम् अस्ति वृद्ध्यताम् इति इदानीं तत्र कर्तृपदं तत्र भवति वा भावे प्रयोगे कर्मपदं नास्ति कर्तृपदं भवति खलु अतः
भवति महोदय
इदानीं
कर्तृपदं तृतीयविभक्तौ भवति
हा इदानीं तत्र अस्मिन् वाक्ये कर्तृपदं किम् अस्ति
तत्र भारतेन इति भवति
न न न तत्र कस्य यशः इति चिन्तयतु वर्धते अथवा वर्धताम् इति अस्ति चेत्
भारतस्य
यशः खलु किन्तु किं कस्य तत्र किं वर्धते यशः एव वर्धते खलु अतः यशः एव कर्तृपदं खलु यतोहि यशः एव वर्धते.
अस्तु अस्तु, भारतस्य ओ अस्तु यशः कर्तृपदं भवति चेत्
अतः कर्तृपदस्य विभक्ति का कर्मणि
कर्तृपदस्य विभक्ति तृतीया. अस्तु भारतस्य यशः यशेन यशेन वृद्ध्यताम्
इति वाक्यम्
यश. अस्तु महोदय, यशः तत्र ओ यशस् इति
यशेन इति न
यश मनस् अस्ति चेत् मनसा यशसा किल
यशसा इति समीचीनम्. तृतीयविभक्तित्वम् इति प्रथमतया स्थापितं किन्तु तत् समीकरणं तस्य समीकरणम् आवश्यकम् आसीत् तावत् यशसा हा भारतस्य यशसा वृद्ध्यताम्.
अस्तु तत्र वर्धनं कस्य भवति इत्युक्ते वर्धनं यशस् इत्यस्य एव भवति अतः तत् कर्तृपदम्. अस्तु
हा तत्र कर्तृप्रयोगे किं भवति भारतस्य यशः वर्धताम् तत्र
इति
भवति किन्तु इदानीं भावे प्रयोगः अस्ति अतः भारतस्य यशसा
वृद्ध्यताम्
अस्तु समीचीनम्. अस्तु अतः तत्र केवलम् एकमेव तत्र भावे प्रयोगः वाक्यम् अस्ति हा किन्तु चिन्ता अस्तु. अग्रे नरेश महोदय अग्रिमम् अभ्यासम् आरम्भं करोति वा महोदय?
महोदय एतानि कर्तरि वाक्यानि यथोदाहरणं कर्मणि भावे वा परिवर्त्य वदत. भवद्भिः पाठारम्भे पठिते सम्भाषणे तानि एव वाक्यानि सन्ति.
हा इदानीम् अस्माकं कार्यं भिन्नम् अस्ति. पूर्वस्मिन् अभ्यासे तत्र दोषः कः इति वक्तव्यः आसीत्. इदानीम् अस्माकं कार्यम् अस्ति परिवर्तनं.
भवन्तः भीष्मम् अभिरक्षन्तु. अत्र तु भवन्तः भीष्मम् अभिरक्षन्तु कर्तृप्रयोगे अस्ति. अत्र परिवर्तनं भवद्भिः तृतीयविभक्ति बहुवचनं भवद्भिः भीष्मं द्वितीयविभक्ति अस्ति. तत्र प्रथमाविभक्ति आवश्यकं भीष्मः अभिरक्षताम् भीष्मः अभिरक्षताम्
अभिरक्षताम् इति भवति.
कृपया भवान् तिष्ठतु
उत्तिष्ठतु.
कृपया भवता भवता उत्तिष्ठतु अत्र तु अकर्मकः अस्ति. अकर्मकः अस्ति तु प्रथम पुरुष एकवचनं किम् अस्ति
उत्तिष्ठताम् इति मन्ये
उत्थीयताम्. कृपया भवता उत्थीयताम्
तत्र पाठे तत्र पश्यतु महोदय तत्र पाठे पेज् 134 मध्ये दुर्योधनः दुर्योधनः एव प्रथमतया वदति खलु. सः किं वदति?
कृपया
उत्थीयतां भवता कृपया उत्थीयताम् इति. समीचीनं महोदय. अस्तु अग्रे गीताञ्जलि भगिनि.
आं महोदय, शीघ्रं समुत्तिष्ठतु अपि तत्र दत्तं मम पुस्तके महोदय. प्रथमे वाक्ये एकं वाक्यमस्ति भवान् कृपया उत्तिष्ठतु, तदनन्तरं प्रथम बिन्दु एव शीघ्रं समुत्तिष्ठतु इति अपि दत्तम्.
ओ अस्तु भगिनि, अस्तु
नरेश महोदय कर्तुम् इच्छति वा? शीघ्रं समुत्तिष्ठतु अपि दत्तम्.
भवता शीघ्रं उत्थीयताम्
समुत्थीयताम् इति प्रायशः
शीघ्रं
समुत्तिष्ठतु अथवा किं भगिनि?
समुत्थि
शीघ्रं समुत्तिष्ठतु तदेव
समुत्तिष्ठतु अतः सम् उत् अतः समुत्थीयताम्
समुत्थीयताम्
समुत्थीयताम् भवता शीघ्रं समुत्थीयताम् मम पार्श्वे अपि भगिनी तत्र पुराणमुद्रणमेव अस्ति भगिनी अतः
अवगतं महोदय
शीघ्रं तु अव्य अस्ति तत्र तु कोऽपि परिवर्तना नास्ति
नास्ति सत्यं महोदय
कृपया अपि परिवर्तनं नास्ति
नास्ति समीचीनम् अस्तु इदानीं
अस्तु महोदय भवान् सावधानः भवतु
इति वा वाक्यं
महोदय भवान् सावधानः भवतु त्वरया किमपि न करोतु इति
ओ अस्तु अस्तु समीचीनं भवान् सावधानः
भवतु त्वरया किमपि न करोतु
इति अस्ति अस्तु
समीचीनं
अस्मिन् पुस्तके केवलं भवान् त्वरया किमपि न करोतु अस्ति
इति अस्ति अस्तु अस्तु इदानीं करोतु वाक्यद्वयं अतः तत्र
अस्तु महोदय भवान् इति भवता सावधानः भूयताम्
सावधानतया क्षम्यतां सावधानः इति अस्ति खलु सावधानेन इति सावधानेन भवता
तत्र
तत्र भवान् सावधानः भवतु इति अस्ति खलु
आं महोदय
तत्र सावधानः इति एव तत्र किं भवतु सावधानः भवतु खलु सावधानः एव कर्तृपदं खलु
सावधानः
एव कर्तृपदं किं भवतु सावधानः एव भवतु
महोदय कर्तृपदं भवान् अस्ति
भवान् अपि अस्ति सावधानः अपि अस्ति खलु भगिनी अत्र
सावधानः
तत्र भवान् इदानीं चिन्तयतु भगिनि तत्र भवान्
भावे प्रयोगः अस्ति
न भगिनि तत्र भवान् उत्तमः भवतु इति अस्ति इति चिन्तयतु इदानीं भवान् उत्तमः भवतु इदानीं तत्र कर्मणि प्रयोगे किं भवति रूपम्
भवता उत्तमेन भवतु
तदेव अस्ति अस्मिन् वाक्ये अपि भवान् सावधानः भवतु इति
सो भवता सावधानेन
भूयताम्
भूयताम्
समीचीनम् इदानीम् अग्रे
अग्रे त्वरया किमपि न करोतु भवता त्वरया किमपि न क्रियताम्
किमपि न क्रियताम् तत्र किम् इति अस्ति किम् इति तत्तु नपुंसकलिङ्गपदमस्ति तत् किम् इति प्रथमविभक्त्यन्तं वा द्वितीयविभक्त्यन्तं वा समीचीनमेव अस्ति अतः भवता तत्र त्वरया भवता त्वरया किमपि न क्रियताम्
महोदय तत्र यदि वयं इति वाक्यं स्वीकृत्य इति विवरणम् इत्युक्ते भवता सावधानेन भूयताम् किन्तु तत्र अपि भवता सावधानेन किमपि विशेषणविशेषः नास्ति वा
न विशेषणम् अस्ति भगिनि तत्र सावधानः इति अतः एव अहम् उक्तवान् तत्र उत्तमः इति चिन्तयतु उत्तमः तु विशेषणम् अस्ति तत्र कः सावधानः अस्ति भवान् एव सावधानः अस्ति
भवान् एव उत्तमः
उत्तमः नाम भवान् एव उत्तमः तत्र सावधानः कः सावधानः भवान् सावधानः अतः तत्र भवता इति अस्ति चेत् सावधानेन इति भवेत्
सत्यं सत्यम् अहं मन्ये विशेषणविशेष नास्ति यथा
पूर्वं तत्र पूर्वं करणमासीत् तत्र करणमासीत् इदानीं तत्र सावधानः नाम विशेषमेव अत्र
अवगतम्.
अस्तु समीचीनं भगिनि. अस्तु अग्रे लक्ष्मी भगिनि.
अस्तु महोदय. वत्सः दुःशासनः सन्निहितः भवतु. कर्तृपदं वत्सः तृतीयविभक्तौ भवेत्. वत्सेन दुःशासनेन सन्निहितः भूयताम्.
पुनः तत्र सन्निहितः इत्युक्ते कः सन्निहितः?
दुःशासन. दुःशासन
सन्निहितः कीदृशः दुःशासन? सन्निहितः दुःशासन.
ओ तदपि तृतीया.
तदपि तृतीया.
वत्सेन दुःशासनेन सन्निहितेन भूयताम्.
भूयताम्. हा तत्र भूयतां तत्र भूधातुः अकर्मकः अस्ति अतः तत्र कर्तृपदम् एव अस्ति कर्मपदं नास्ति. अतः
कर्मपदं नास्ति.
अतः तत्र सर्व
भावे प्रयोगः.
हा भावे प्रयोगः एव तत्र. तत्र किं तत्र पठितः ग्रन्थः अस्ति चेत् तादृशमस्ति खलु भगिनि. सन्निहितः नाम अन्तःप्रत्ययः. पठितः ग्रन्थः इदानीं तत्र तृतीया भवति चेत् तत्र किं पठितेन ग्रन्थेण तादृशमेव तत्र सन्निहितः. सन्निहितः कः? सन्निहितः दुःशासनः. अतः सन्निहितेन दुःशासनेन वत्सेन
दुःशासनेन भूयताम्.
समीचीनम्
महोदय. भवन्तः स्नानानुष्ठानादिकं शीघ्रं परिसमाप्तयन्तु. अस्तु. भवन्तः भवद्भिः स्नानानुष्ठानादिकं अस्तु एकनिमिषं महोदय. तत्र शीघ्रेण आप्यन्तामिति भवनीयं. तर्हि तत्र भवद्भिः स्नानानुष्ठानिकः इति भवति इति मन्ये महोदय.
नपुंसकलिङ्गपदं भगिनि तत्र.
अस्तु. भवद्भिः स्नानानुष्ठानादिकं शीघ्रेण परिसमाप्यन्ताम् भवति
वा? अस्तु. तत्र कर्तृपदं किमस्ति? भवन्तः.
भवन्तः
अतः तत्र परिवर्तनं परिवर्त्य तत्र भवद्भिः इति समीचीनम्. इदानीं कर्मपदं किमस्ति?
शीघ्रं स्नानानुष्ठानादिकम्
इति कर्मपदम् अस्तु. तस्य नपुंसकलिङ्गपदम् अस्ति अतः तत्र द्वितीयविभक्ति वा प्रथमविभक्ति वा किमपि कार्यं नास्ति. अतः यत् दत्तं तत् समीचीनं खलु. अस्तु. इदानीं शीघ्रम् इति तत्र किं कर्मपदं वा तत्र अव्ययं वा किम् अस्ति?
शीघ्रम् इति कर्मपदम् अस्ति तत्र महोदय.
अव्ययम्
अव्ययमस्ति वा शीघ्रम् इति?
तत्र शीघ्रम् इति पदस्य अन्वयः कुत्र भवति भगिनि? तत्र शीघ्रं करोतु इति अस्ति चेत् तत्र किं शीघ्रं करोतु इति वाक्यं भवति खलु.
आम्
शीघ्रं करोतु इति वाक्यं वक्तुं शक्नुमः खलु.
क्रियाविशेषणं भवति.
हा कथं करणीयम् इति एव अस्ति. अतः तत्र तस्य अन्वयः तत्र क्रियापदेन न भवति कर्मपदेन न भवति खलु.
क्रियापदेन
सम्बन्धः तत्र क्षम्यतां तत्र कर्तृपदेन अथवा कर्मपदेन न भवति केवलं क्रियापदेन एव भवति खलु. अतः तत्र इदानीम् अस्माकं कार्यं कर्तृप्रयोगतः कर्मणि प्रयोगं तावत् गन्तव्यम् अस्ति. अतः तत्र शीघ्रम् इति पदस्य परिवर्तनम् आवश्यकं वा न आवश्यकम्?
तत्र आवश्यकमिति मन्ये शीघ्रं तत्र. किन्तु
तत्र केवलं न तत्र कर्तृप्रयोगे वाक्यमस्ति कर्मणि प्रयोगरूपम् इच्छामः. अतः तत्र किं किं परिवर्तयामः तत्र कस्
तत्र कर्मपदस्य
कर्तृपदस्य कर्मपदस्य कर्तृपदस्य क्रियापदस्य परिवर्तनं भवति खलु, किन्तु अन्येषां पदानां परिवर्तनं न भवति खलु,
न भवति।
हा, तत्र तृतीयविभक्तन्तम् अस्ति अथवा भारतस्य अस्ति चेत् अथवा समुद्रे इति पदम् अस्ति चेत् परिवर्तनं भवति वा न?
न भवति।
हा, अतः तत्र शीघ्रमपि तत्र तस्य परिवर्तनं न भवति। अतः केवलं कर्तृपदस्य कर्मपदस्य साक्षात् क्रियापदस्य एव तत्र परिवर्तनं भवति।
तर्हि तत्र भवद्भिः स्नाननुष्ठानादि केन भवति वा महोदय?
स्नाननुष्ठानादिकम् इति कर्मपदं वा कर्तृपदं वा?
कर्मपदम्।
विभक्ति का कर्मणि प्रयोगे?
भवद्भिः स्नाननुष्ठानि स्नानुष्ठानि स्नाननुष्ठानादिकः
न तत् नपुंसकलिङ्गपदम्।
नपुंसकलिङ्गम्, अस्तु अस्तु। आदिकं तत्र आदिकं तत्र का प्रयोगः किल महोदय?
आदिकः तत्र नाम तत्र कः इत्युक्ते यः करोति इति अर्थे तत्र कम् इति। हा,
आदिकः इति नास्ति वा?
न न न न, तत्र तत्र साधुः साधुक इति तत्र तत्र भेदः नास्ति, समानार्थः।
तर्हि तत्र का अपि अस्ति, कम् अपि अस्ति,
यतोहि विशेषणं भवति खलु तत्र नपुंसकलिङ्गे भवति पुल्लिङ्गे भवति अतः।
अस्तु अस्तु अस्तु,
तत्र नपुंसकलिङ्गपदम् अस्ति अत्र। स्नाननुष्ठानादिकम् इति नपुंसकलिङ्गपदं कर्मपदम्।
तत् कथं जानीमः तत्र नपुंसकम् अस्ति इति कृत्वा, इति तत्र कर्तरी अस्ति इति कृत्वा कर्मपदम् अभवत्?
हा, किन्तु किन्तु तत्र पदं जानीमः, नो नो चेत् कोष्टकं द्रष्टव्यम् अस्ति। किन्तु
आदिका इति पुंलिङ्गे अपि भवति चेत् तत्र
समीचीनप्रश्नः, किन्तु अत्र तु तत्र नपुंसकलिङ्गपदमेव भगिनि। हा, कथं जानामि इत्युक्ते तत्र अहं कथं जानामि इत्युक्ते तत्र पाठे साक्षात् तत्र कर्मणि प्रयोगः दत्तः अस्ति।
अस्तु महोदय,
तत्र द्रोणः इति वदति तत्र कस्मिन् अष्टमे वाक्ये इति मन्ये अथवा नवमे वाक्ये, हा न हा, दुर्योधनः तत्र दुर्योधनः अस्तु इति वदति, पश्यतु भगिनि।
हा, दुर्योधनः अस्तु, अस्तु
तत्र
तत्र भवतां स्नानानुष्ठानादिकं शीघ्रं परिसमाप्यताम्।
हा, तत्र कर्मपदं किम् अस्ति? स्नानानुष्ठानादिकम् एव अस्ति खलु?
अस्ति, आम्।
अतः अतः तत्र कर्मपद तत्र कर्मणि प्रयोगे अस्ति, कर्मपदं प्रथमविभक्तिन्तं भवेत्, तत्र स्नानानुष्ठानादिकम् इति अस्ति, अतः
तत्र अतः नपुंसकलिङ्गम् अस्ति इति जानीमः
इति पूर्वं ज्ञातवान्।
अस्तु महोदय,
तावदेव भगिनि। हा,
महोदय, तत्र मम मनसि अपि भ्रम जात इत्युक्ते वयं सर्वदा वदामः विलम्बेन विलम्बेन, किन्तु अत्र शीघ्रेण नास्ति इति भ्रम जातं महोदय।
भगिनि तत्र अस्तु, तत्र इदानीं तत्र अस्तु, तत्र तद् चिन्तयामः, किन्तु एतत् प्रथमतया वाक्यं वदतु भगिनि तत्र, तदनन्तरं चिन्तयामः तस्मिन् विषये।
अस्तु, भवद्भिः स्नाननुष्ठानादिकं शीघ्रं परिसमाप्यन्ताम्। तदेव किल महोदय? अस्तु अस्तु अस्तु, क्षम्यताम्। स्नाननुष्ठानादिकं परिसमाप्यताम्,
शीघ्रं परिसमाप्यता,
शीघ्रं परिसमाप्यताम्, तत्र कर्मपदम् अनुसृत्य, क्षम्यताम्। तर्हि तत्र भवन्तः इत्यस्य परिवर्तनम् अपि च क्रियापदस्य परिवर्तनं, कर्तृ अपि क्रियापदस्य परिवर्तनं भवति तत्र एव,
तावदेव तावदेव। यतोहि तत्र कर्मपदं नपुंसकलिङ्गपदम् अस्ति इति अत्र शीघ्रम् इति तत्र क्रियाविशेषणम् अस्ति
क्रियाविशेषणम्
अत्र तस्य शीघ्रम् इति एव अस्ति तत्र परिवर्तनं नास्ति शीघ्रः इति तत्र नामपदमपि भवितुमर्हति तत्र शीघ्रः तत्र विशेषणत्वेन अस्ति तत्र त्रिषु लिङ्गेषु भवति शीघ्रः शीघ्रा इति तत्र किन्तु तद् भिन्नम् अस्ति अत्र तु तत्र शीघ्रम् इति तत्र साक्षात् तत्र क्रियाविशेषणं क्रियापदेन एव तस्य अन्वयः न तु तत्र अतः तत्र
तत्र मम एकः प्रश्नः महोदय यदि शीघ्रः सुबन्तमपि अस्ति अपि च विभक्तिः भवति किन्तु यदा तदेव पदं क्रियाविशेषणं भवति चेत् तत्र नपुंसकलिङ्गे एव भवति वा तथा
नास्ति भगिनि तत्र शीघ्रः इति तत्र भिन्नमस्ति भगिनि तत्र नाम तत्र क्रियाविशेषणम् अस्ति चेत् तत्र द्वितीयविभक्त्यन्तं भवेत् इति मन्ये भगिनि
तत्र यतोहि तत्र एकम् उदाहरणं वदामि महोदय मौनं धावति मौनं धावति इति मौनं तु भावं मौना इत्यस्य भावं मौनं भवति किल महोदय न मुनेः भावं मौनं मुनेः भावं मौनम् एकं वाक्यम् अस्ति महोदय मौनं धावति इति
अस्तु भगिनि
तत्र किं करणीयं महोदय तत्र मौनम् इति भावम् अस्ति इति कृत्वा तस्य परिवर्तनं किमपि न भवति वा अथवा
तत् साक्षात् कर्तृपदमस्ति खलु भगिनि तत्र मौनं
सः मौनं धावति
ओ अस्तु अस्तु सः मौनं
सः मौनं धावति
अतः तत्र प्रायशः तत्र मौनम् इति क्रियाविशेषणम् अस्ति
हा क्रियविशेषणम् अस्ति चेत् तत्र तस्य लिङ्गं किमपि भवनीयम् इति अस्ति वा
तत्र लिङ्गं न तत्र न प्रायशः तत्र मौ तद् किमपि भवितुम् अर्हति भगिनि
तत्र
भवितुम् अर्हति किन्तु तत्र किन्तु
तत्र मम प्रश्नः किम् इत्युक्ते महोदय सः वेगेन धावति तत्र तु तृतीय भवनीयम् अपि च अन्यत् अस्ति किं तत्र अन्यत् अस्ति अधुना न स्मरामि किन्तु वेगेन इति तु भवति वेगेन किल वेगं धावति इति तु न भवति वेगेन धावति किन्तु मौनं धावति तत् वाक्यम् अस्ति तादृशं तत्र तृतीया न आवश्यकम्
तत्र क्रियाविशेषणम् इति स्वीकरणीयम् अस्ति इति मन्ये भगिनि क्रियाविशेषणम् अतः तत्र कर्मपदं नास्ति तत् द्वितीयाविभक्तन्तं भवेत् किन्तु कर्मपदं नास्ति तत्
वेगेन किमर्थं तृतीया तदपि
क्रियाविशेषणं नास्ति तत् वाक्ये तत्र तत्र भावः अस्ति अथवा तत्र अन्यत् किमपि अस्ति तत्र सम्यक्तया न जानामि भगिनि किन्तु तत्र क्रियाविशेषणम् इति विषये तत्र पूर्वमपि आसीत् प्रश्नः आसीत् अतः तत्र तस्मिन् विषये अग्रे तत्र किञ्चित् दृष्ट्वा वदामि भगिनि
तत्र कुत्र अस्ति महोदय क्रियाविशेषणानि इति
तत्र तेषां तत्र चर्चा कुत्र अस्ति इति अहमपि अन्वेषणं कुर्वन् अस्मि भगिनि किन्तु तत्र
अहं
पृच्छामि पृच्छामि तत्र केवलं तत्र कुत्र अस्ति चेदपि तत्र अहं प्रायशः तत्र न अवगन्तुं शक्नोमि किन्तु यदि अन्य कोऽपि अथवा अन्या कापि यदि तत्र विवरणं करोति चेत् अहम् अवगन्तुं शक्नोमि इति कृत्वा तत्र पृष्ट्वा वदामि भगिनि
अस्तु महोदय धन्यवादः
किन्तु किन्तु सम्यक् प्रश्नः तत्र कदा तथा तृतीयाविभक्त्यन्तं भवति अथवा किमर्थं द्वितीयविभक्त्यन्तं सर्वदा पुल्लिङ्गम् एव वा नपुंसकलिङ्गं भवितुम् अर्हति वा इति तादृशप्रश्नः सन्ति खलु भगिनि भवत्याः
आं महोदय किमर्थं तत्र अन्यत् उदाहरणं वदामि वा महोदय एकः निमिषः एव
अस्तु भगिनि
तत् मन्दं इति अपि तत्तु अव्ययम् अव्ययपदमस्ति सः मन्दं धावति सः मौनं धावति सः वेगेन धावति इति
एते तत्र एतेषां तत्र नियमः कः तत्र क्रियविशेषणस्य नियमः के इति अस्तु भगिनि तत्र यदा यदा प्राप्नोमि अहं निश्चयेन वदामि भगिनि तावत् न प्राप्तं
धन्यवादः महोदय
अस्तु भगिनि अस्तु तर्हि इदानीम् अग्रे नरेश महोदय
भवन्तः आचार्यं रणक्षेत्रम् आनयन्तु अत्र कर्मणि प्रयोगे भवन्तः भवद्भिः आचार्यः रणक्षेत्रं तु नपुंसकलिङ्ग अस्ति रणक्षेत्रं आनीयताम्
समीचीनं महोदय
भवद्भिः आचार्यः रणक्षेत्रम् आनीयताम्
इति एव समीचीनं तत्र पश्यामः तत्र कुत्र अस्ति भवद्भिः आचार्यः कुत्र अस्ति एतत् वाक्यं दत्तवन्तः खलु तत्र समीचीनमेव आचार्यः रणक्षेत्रम् आनीयताम् इति समीचीनमेव उक्तं
पाठे अस्ति
तत्र दुर्योधनस्य वाक्यं पेज् 134 मध्ये दुर्योधनस्य वाक्यम् अस्ति अस्तु इति आरम्भे अस्तु इति अस्ति खलु महोदय दीर्घवाक्यं
दुर्योधनस्य
तत्र अन्तिमभागः अनुष्ठान आचार्यः रणक्षेत्रम् आनीयताम् अस्मिन् वाक्ये विशेषः कः इत्युक्ते तत्र क्रियापदं विशिष्टक्रियापदमस्ति यतोहि कीदृशक्रियापदम् अस्ति तत्र आनयति इति क्रियापदं कीदृशमस्ति
आनयति तत्र
आनयति इति क्रियापदस्य विशेषणं तत्र विशेषं वैशिष्ट्यं किम् आनयति
आनयति
इति साक्षात् क्रियापदस्य वैशिष्ट्यं किम् इत्युक्ते द्विकर्मकक्रियापदम्
द्विकर्मकः अस्ति
तत्र कम्
आचार्यं रणक्षेत्रं
तत्र किन्तु अतः तत्र द्विकर्मक अस्ति चेत् तत्र गौणकर्मपदम् अस्ति अपि अन्यत् किमस्ति तत्र गौणकर्मपदम् अपि किमपि आसीत् खलु तत्र वर्णनं तत्र द्विकर्मकधातूनां कुत्र आसीत् वयं कुत्र दृष्टवन्तः अस्तु तत्र पेज् 115 मध्ये अस्ति खलु तत्र
पठितवन्तः
प्रधानकर्म गौणकर्म प्रधानकर्म गौणकर्म इति तत्र
अत्र तु आचार्यः
प्रधानकर्म इति प्रधानकर्म नाम तस्य एव प्राधान्यम् इम्पोर्टेण्ट् अन्यत् अस्ति किन्तु दट्स् नाट् सो इम्पोर्टेण्ट् इति अर्थे तत्र गौणकर्म कर्मपदमस्ति रणक्षेत्रं किन्तु कर्मणि प्रयोगे सर्वदा तत्र प्रधानकर्मपदस्य एव तत्र कर्मपदम् इति स्वीकुर्मः अतः तस्य एव प्रथमविभक्त्यन्तं भवति
गौणकर्म विभक्ति न परिवर्तनम् अस्ति
न कर्मणि प्रयोगे न भवति तत्र कर्मपदद्वयमस्ति चेत् तत्र कर्मपदं तत्र द्विकर्मकधातुः अस्ति अतः कर्मपदद्वयमस्ति एकं प्रधानम् एकं गौणं केवलं प्रधानकर्मपदस्य एव तत्र प्रथमविभक्त्यन्तं भवति गौणकर्मपदस्य न यदि तत्र एकमेव तत्र साधारण क्रियापदम् अस्ति तत्र पठति किन्तु सः पुस्तकानि ग्रन्थान् ग्रन्थान् पुस्तकानि पठति अस्ति चेत् तत्र कर्मणि प्रयोगे किं भवति? तेन
तेन पुस्तकानि
ग्रन्थाः पठ्यन्ते
पठ्यन्ते.
तत्र तु तत्र साधारणक्रियापदमस्ति सकर्मकक्रियापदमस्ति. यद्यपि तत्र कर्मपदद्वयमस्ति किन्तु तत्र द्वयोः तत्र प्रथमाविभक्त्यन्तमेव स्वीकरणीयं. किन्तु यतोहि तत्र द्विकर्मकधातु नास्ति, केवलं साधारणकर्म क्रियापदमस्ति. यत्र द्विकर्मकधातु अस्ति तत्र भेदः अस्ति. एकः एककर्मपदं प्रधानकर्मपदम्, अन्यत् कर्मपदं गौणकर्मपदम्. अस्मिन् तत्र सः पुस्तकानि ग्रन्थान् पठति, तत्र प्रधानं गौणम् इति प्रश्नः न उदेति खलु?
नास्ति
नास्ति.
सो अत्र द्विकर्मकः हेतु चेत् आवश्यकमस्ति केवलं प्रधानकर्मपदं
किम् इति कर्मपदं किम् इति तत्र ज्ञातव्यमस्ति. अपि तस्य एव प्रथमविभक्त्यन्तं स्वीकरणीयं.
गौण द्वितीयविभक्ति
इति एव तिष्ठति, तस्य परिवर्तनं न भवति. अतः तत्र वाक्यम् अस्ति, भवद्भिः आचार्यः रणक्षेत्रम् आनीयताम्. इदानीं तत्र आचार्यम् इति स्थाने आचार्याण् इति अस्ति चेत् तत्र रूपं किं कीदृशं भवति?
आचार्याः
रणक्षेत्रम्
रणक्षेत्रम् आनीयन्ताम्
आनीयन्ताम् इति भवति. यतोहि इदानीं तदेव कर्मपदं, तत्र कर्मपदं यत् प्रथमविभक्त्यौ विभक्त्याम् अस्ति तम् अनुसृत्य एव तत्र क्रियापदस्य रूपं भवति. अतः तत्र आचार्याः अस्ति चेत् बहुवचने अस्ति, अतः आनीयन्ताम् इति भवति.
रणक्षेत्रं तु रणक्षेत्रं
रणक्षेत्रमेव तिष्ठति. अस्तु समीचीनम्. अस्तु अग्रे गीताञ्जलि भगिनी.
अस्तु महोदय, पञ्चमबिन्दु मम वाक्यं किञ्चित् अस्तु. शृणु, प्रथमं सर्वसैन्याधिपं सर्वसेनारक्षकं भीष्मपितामहं प्रबोधय.
अस्तु, पुनः एकवारं वदतु भगिनि.
शृणु, प्रथमं सर्वसैन्याधिपं सर्वसेनारक्षकं भीष्मपितामहं प्रबोधय.
प्रबोधय, अस्तु समीचीनं भगिनि. अस्तु
अस्तु, तत्र शृणु तु श्रूयताम्.
हा, इदानीं तत्र शृणु इति अस्ति किन्तु तत्र अस्तु शृणु इति अस्ति भगिनि. तत्र पुरुषः कः?
लोट् अस्ति, कर्मणि लोट् अस्ति. पुरुष
पुरुषः कः शृणु इति?
मध्यमपुरुष.
तत्र प्रथमपुरुषे एकवचने तत्र शृणु इति रूपं किं भवति?
सर्वे इत्युक्ते लोट्
न भगिनि 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 शृणु इति पुरुषः मध्यमपुरुष इति उक्तवती खलु. किमर्थं मध्यमपुरुष इति उक्तवती? हा, शृणोतु इति
भवान् शृणु.
न भवान् शृणोतु, त्वं शृणु खलु.
त्वं शृणु, क्षम्यताम्.
अतः मध्यमपुरुषः, समीचीनम्. इदानीं त्वं शृणु इति वाक्यस्व इति वाक्यं स्वीकृत्य कर्मणि वदतु.
त्वं शृणु, त्वया 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 किमस्ति त्वया श्रूयतुः
श्रूयते किन्तु लोट्लकारे किं भवति?
श्रूयस्व
न हा अस्तु समीचीनं भगिनि श्रूयस्व इति न श्रूयस्व इति न किन्तु किमर्थं श्रूयस्व इति भवती स्वीकृतवती यतोहि त्वया इति अस्ति किन्तु त्वया इति कर्तृपदम् अस्ति कर्मपदं किं न दत्तं खलु कर्मपदं तत्र नास्ति
अस्तु नो कर्तृपदं त्वम् अस्ति कर्तृपदं त्वम्
इति अस्ति अस्तु भगिनि किन्तु कर्मणि प्रयोगे क्रियापदं कं किं पदम् अनुसरति
ओ हा 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 कर्मपदम् अनुसरति सत्यं सो त्वम् अस्ति चेत् त्वया त्वया श्रूयतामेव
तदेव अस्ति त्वया श्रूयताम्
हा श्रूयतामेव
हा तत्र त्वं भवसि त्वया भूयते खलु भूयते त्वं तत्र भावे प्रयोगः इति चिन्तयतु यतोहि कर्मपदं नास्ति खलु तत्र त्वं भवसि त्वया भूयते त्वया भूयसे न त्वया भूयते एव भूयताम् अथवा भूयतां त्वया भूयतां लोट्लकारे अत्र श्रूयतां त्वया श्रूयताम् अस्तु अग्रे
त्वया श्रूयताम् त्वया श्रूयतां प्रथमं प्रथमं तु
तिष्ठति अस्तु
तिष्ठति हा इति मन्ये हा सर्वसैन्याधिपः
इति तत्र कर्तृपदं वा
न न कर्मपदम् इत्युक्ते प्रथमं सर्वसैन्याधिपः सर्वसैन्यारक्षकः प्रथमं सर्वसैन्याधिपं सर्वसेनारक्षकं भीष्मपितामहं प्रबोधय
इत्युक्ते
सर्वे कर्मपदमस्ति त्रि कर्मपदं त्रयम् अस्ति तत्र कर्मणि लोट् अस्ति चेत् प्रथमं सर्वसैन्याधिपः सर्वसेनारक्षकः भीष्मपितामहः प्रबोध्यताम्
इति समीचीनं
प्रबोध्यन्ताम्
न न प्रबोध्यताम् इति एव एकवचने भीष्मपितामहः इति एकः एव अस्ति खलु
किन्तु सर्वसैन्याधिपः अपि
एकवचने
सर्वसेनारक्षकः
इति एकवचने एव अस्ति किम् अस्ति विशेषणमस्ति कीदृशः भीष्मः
हा कीदृशः भीष्मः सर्वसैन्याधि हा 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 क्षम्यतां महोदय प्रबोध्यताम्
हा इति प्रबोध्यतां समीचीनं भगिनि अतः तत्र भीष्मपितामहः कीदृशः सः सर्वसेनासंरक्षकः अस्ति अपि सः सर्वसैन्याधिपः अस्ति अतः एकवचने अस्ति प्रबोध्यताम्
हा भीष्मपितामहः प्रबोध्यताम्
इति एव तदनन्तरं विशेषणानि वयं
विशेषणानि अपि
स्थापितवन्तः तावदेव समीचीनं
धन्यवादः महोदय
समीचीनं भगिनि अस्तु अग्रे लक्ष्मी भगिनि
हा अस्तु महोदय पञ्चम
महोदय एक क्षम्यतां महोदय एकः प्रश्नः अस्ति तत्र प्रबोध्यतां वा प्रबुध्यतां वा
न प्रबोध्यतामेव समीचीनं भगिनि तत्र पाठे तदेव दत्तमस्ति भगिनि अतः तत्र संशयः अस्ति चेत् पाठं पश्यामश्चेत् तत्र जानीमः यतोहि तदेव दत्तमस्ति तत्र
यक् अस्ति चेत् तु धातुयोगः यक् अस्ति किन्तु अत्र तु बोधधातु वा बुद्ध धातु वा इति मम संशयः अस्ति
बोध् इति एव अस्ति इति मन्ये भगिनि बोध् 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 इति एव अस्ति
बोध् इति एव
इति एव तत्र पाठे अपि तत्र पाठे तत्र द्रोणः एतद् वदति भगिनि 134 मध्ये श्रूयताम् इति वाक्यमस्ति.
अस्तु महोदय.
हा अतः तत्र अतः प्रबोध्यताम् इति
अस्तु बोध धातु. हा किञ्चित् किञ्चित् विशिष्टधातु अस्ति अपि बुद्ध. अस्तु धन्यवादः.
बोध इति धातुः अपि अस्ति वा
न जानामि भगिनी, किन्तु किञ्चित् विशिष्ट अस्ति तत्तु इति.
तत्र
लट्लकारे कर्तृप्रयोगे क्रियापदं किम् आसीत् भगिनि?
बोध इत्युक्ते रूपद्वयं
साक्षात् क्रियापदं वदतु भगिनि. न न भवत्याः वाक्ये तत्र यत् उक्तवती
मम कर्तृप्रयोगे अस्ति वा? प्रबोधय इति प्रबोधय
प्रबोधय इति आसीत् वा?
प्रबोधय इत्युक्ते यथा त्वं प्रबोधय इति.
अस्तु भगिनि, तत्र बुद्ध धातुः एव अस्ति भगिनि, बुद्ध धातुः. किन्तु बुद्ध धातुः न न न न बुद्ध धातुः णिच् अस्ति तत्र, अतः बोध इति भवति. णिच् अस्ति अतः बुद्ध इत्युक्ते साक्षात् अहं तत्र किमपि अवगच्छामि, किन्तु बोध इति तत्र अन्यान् प्रेरणार्थे खलु.
हा 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 बुद्ध अस्ति अस्ति बुद्ध योग णिच् तत्तु.
अतः अतः तत्र
प्रायोग बुद्ध योग णिच्
तत्र प्रबोध्यताम्.
अस्तु
अस्तु भगिनि. अस्तु इदानीं लक्ष्मी भगिनि तत्र भगिनि तत्र भवत्याः पुस्तके षष्टवाक्यं किमस्ति? षष्टं वाक्यं
षष्टम इति
लक्ष्मी भगिन्याः
भवन्तः आचार्यं रणक्षेत्रम् आनयतु.
तदपि तत् कृतम्. अस्तु इदानीम् अतः
सप्तम
मम पुस्तके महोदय तत् वाक्यम् अष्टम वा?
अस्तु अस्तु भगिनि अस्तु. अस्तु लक्ष्मी भगिनि
भवान् अत्र भवतु. भवान् प्रथमाविभक्ति एकवचनं, तृतीया भवता अत्र भूयताम्.
भवता अत्र भूयताम्
भूयताम्
तत्र सरलम् आसीत् भगिनि, अतः तत्र अग्रिमवाक्यमपि करोतु तत्र.
भवान् गत्वा कर्णं वदतु मम पूर्व सूचनानुसारं व्यूहं स्थानं स्थापयन्तु. भवान् गत्वा कर्णं वदतु मम पूर्वं
पुनः वदतु पूर्वं सम्पूर्णवाक्यं. क्षम्यतां,
पूर्वसूचनानुसारं मम पूर्वसूचनानुसारं व्यूहं स्थानं स्थापयन्तु. कर्तृपदं भवान् भवता इति
सत्यं सत्यं भगिनि.
भवता गत्वा
गत्वा गत्वा इति
गत्वा एव गत्वा कर्णं वदतु.
तत्र कर्णः वदतु कर्णं वदतु इति तत्र अतः तत्र भगिनि तत्र त्वान्तं ल्यबन्तम् अस्ति चेत् तत्र समानकर्तृपदं भवति वा? यदि अहं वदामि तत्र लक्ष्मणः अरण्यं गत्वा गृहं रचितवान् इति अस्ति चेत् तत्र कः रचितवान्?
लक्ष्मणः.
लक्ष्मणः सः गतवान्? लक्ष्मणः खलु.
लक्ष्मणः.
अतः तत्र त्वान्तम् अस्ति चेत् तत्र तुमो नास्ति चेत् तत्र समानकर्तृपदं खलु. अतः अत्रापि तत्र भवान् गत्वा अस्ति, तदनन्तरं भवान् करणं वदतु अस्ति. इदानीं भवान् गत्वा किं भवति? भवता गत्वा. इदानीं तदनन्तरं तत्र भवान् करणं वदतु, तत्र तत्र किं भवति? कर्णः. इदानीं वदतु इति स्थाने किं भवति?
उद्यताम् इति.
उच्यताम्. वद् धातुः तत्र किं भवति? तत्र पूर्वं दृष्टवन्तः वद् इति तत्र उद् इति भवति वा उच् इति भवति वा किम्?
उद्यताम् इति.
उद्यताम्. उद्यताम् सत्यं भगिनि, समीचीनं. हा उद्यताम्.
वच् धातुः
उच् इति भवति. हा समीचीनं भगिनि. हा अतः तत्र उद्यताम्. हा उद्यताम्. किम् उद्यताम्? मम
मम पूर्वसूचनानुसारं
हा
व्यूहः स्थानं स्थापयन्तु.
तत्र किमर्थं स्थापयन्तु इति अस्ति इति तद् अहं न अवगच्छामि, यतोहि तत्र भवान् एव अस्ति कर्तृपदं खलु. अपि कर्णः एव तत्र अस्तु, वदतु कर्णः एव. अतः तत्र
महोदय वदामि वा? महोदय मम पुस्तके इति वाक्यं नास्ति.
भवत्याः पुस्तके किमस्ति?
भवान् गत्वा कर्णं वक्तु, मम पूर्वसूचनानुसारं व्यूहं विरचय इति.
तद् अत्र मुद्रणदोषः अस्ति इति. अस्तु सत्यं भगिनि. व्यूहं विरचय.
व्यूहं विरचय इति अपि दत्तम्. इति अपि दत्तं विरचय इति.
विरचय इति समीचीनम्. अपि वदतु इति स्थाने किम् अस्ति? कर्णं वक्तु.
परन्तु महोदय विरचय किमर्थम् अस्ति? भवान् तु प्रथमपुरुष, विरचय मध्यमपुरुष.
समीचीनमेव महोदय, तत्र समीचीनमेव. भवान् विरचय. महोदय तत्र मम पूर्वसूचनानुसारं व्यूहं विरचय इति, तत्र एषः गत्वा कर्णं वदति. एषः गत्वा, तत्र कः गत्वा? तत्र दुर्योधनः गच्छति वा? तत्र दुर्योधनः गच्छति इति मन्ये, अथवा दुःशासनः गच्छति इति मन्ये. दुःशासनः.
दुर्योधनः वदति अन्तिम. दुर्योधन अस्तु.
न किन्तु कः गच्छति भगिनि? न कः गच्छति?
दुर्योधनः गच्छति. पाठे दत्तं महोदय.
अस्तु
दुर्योधनः अस्तु गच्छति.
अस्तु तत्र यदि तत्र दुर्योधनः गच्छति, दुर्योधनः करणम् उद्दिश्य किं वदति? तत्र भवान् इति वदति वा अथवा त्वम् इति वदति वा?
भीष्मः वदति वा?
न भीष्मः अत्र नास्ति. केवलं तत्र दुर्योधनः वा दुःशासनः वा अपि कर्णः अस्ति. इदानीं तत्र सम्भाषणं कथं भवति? तत्र भवान् त्वम् एव भवति.
मित्रौ सन्ति.
अतः तत्र मित्रे सन्ति. मित्रे स्तः. अतः तत्र त्वम् इति एव तत्र. अतः द्रोणः दुःशासनम् उद्दिश्य वा अथवा दुर्योधनम् उद्दिश्य वदति तत्र कर्णं गच्छतु, कर्णं वदतु. किं वदतु तत्र? एतत् विरचय इति. नरेश महोदय,
इत्युक्ते कर्णः
द्रोणः कर्णं न वदति, कर्णम् उद्दिश्य न वदति. द्रोणः किं चिन्तयति, यदि एषः गच्छति चेत् तत्र किं वदति, त्वम् एतत् करो कुरु इति त्वं वदसि.
हिन्दीभाषायां वहा जाकर
तुम उसे कहो,
हाँ तुम करवाओ या तुम
उसे कहो, हाँ ये तत् उसे कहो, किम कहो
मीन्स आप जाकर तुम कहो.
हाँ
आप जाकर
उससे
उसको बिकम तुमको कहो.
हाँ उसको कहो तुम ये तुम,
हाँ करेक्ट, उसको कहो तुम
तुम इति, अतः तत्र त्वम् इति भवति.
काम्प्लिकेटेड्
हिन्दी अपि संस्कृत तयोः मेलनं क्लिष्टमस्ति भगिनि, किन्तु तद् अहं न कर्तुं शक्नोमि.
चिन्तनम् अपेक्षितं
सत्यं महोदय. अस्तु लक्ष्मी भगिनि, अतः तत्र एतत् कृत्वा समापयामः, तत्र समयः अपि जातः, किन्तु विरचयः अपि वक्तु इति, भवान् गत्वा कर्णं वक्तु,
कर्णमेव वा
कर्णं वक्तु,
कर्णं वक्तु
मम पूर्व सूचनानुसारं
व्यूहः विरचयताम्.
हा अतः भवता गत्वा कर्णः उच्यताम्,
कर्णः उच्यताम्
मम पूर्व
सूचनानुसारं व्यूहः
विरचयताम् इति, विरच्यतां विरच्यतां विरचयतां न विरच्यताम् इति. समीचीनम्, अस्तु तर्हि उत्तमं
महोदय. तत्र पञ्चमम् अभ्यासं किं स्वीकृतवन्तः इति चेत्, तत्र कथायाम् आगतः कथायाः आगतः इति किल महोदय, तत्र तृतीय चतुर्थ अभ्यासौ न कृतवन्तः किल,
किमपि न कृतवन्तः.
सः सन्नीतः भवतु तत्र,
न न तत्र तत्र यतो उदाहरणं तत्र अभ्यासस्य सङ्ख्या न महोदय, तत्र शीर्षिकायाः सङ्ख्या
पेज् 137, 138, 139 न कृतवन्तः.
किमर्थं चेत् एतत् अभ्यासः कथायाः आगतः इति कृत्वा कर्तुं भवान् निश्चितवान् इति मन्ये महोदय. I'm just saying that we haven't done these other exercises yet, right, महोदय?
Oh, 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 oh.
Because we read the katha, Bhavan decided to go to this one because it's coming from katha.
इति वा भगिनि, अस्तु तत्र अहं न स्मरामि इदानीं, धन्यवादः भगिनि, अस्तु.
Need to come back to 137.
अस्तु अस्तु भगिनि, अस्तु अस्तु.
Maybe that's why it's so क्लिष्टं महोदय.
अस्तु भगिनि, अस्तु, अतः तत्र 137 अपि अग्रिमे वर्गे कुर्मः.
आम् महोदय,
धन्यवादः भगिनि सूचनार्थम्. अहं न स्मरामि एव, अतः तत्र समीचीनं, धन्यवादः
इति किमपि
यदि वयं पूर्वं कृतवन्तः पुनरेकवारं यदि कुर्मः लाभः एव भगिनि, अतः यदि मनसि न तिष्ठति पुनः एकवारं कुर्मः, तदनन्तरं स्मरामः, ओ अस्तु अस्तु अहं कृतवन्तः वयं कृतवन्तः इति स्मरामः.
आं महोदय, केन् वि प्लीस् रिपीट् दिस् चाप्टर् वन्स् वि आर् डन् महोदय.
अस्तु भगिनि, कुर्मः कुर्मः. अस्तु भगिनि, अस्तु, तत्र नरेश् महोदय अन्ते भवान् तत्र शान्तिमन्त्रं वदति वा महोदय.
आं महोदय, ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. नमः
धन्यवादः
धन्यवादः
धन्यवादः महोदय नमस्कारः
पुनर्मिलामः
नमस्कारः पुनर्मिलामः